निषिद्धैरव्येभिः लुलितमकरन्दो मधुकरैः करैरिन्दूरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभकामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिलयम्। त्रिंशः श्लोकः दृष्टः। तातस्तव प्रणयवान् स पितुः सखा मे शस्त्रे यथा तव गुरुः स तथा ममापि किं तस्य देहनिधने कथयामि दुःखं जानीहि तद्गुरुशुचा मनसा त्वमेव। इति दुर्योधनः अश्वत्थामानं कथयति यत् तव पिता प्रणयवान् सः मम अपि पितृतुल्यः एव आवयोः द्वयोः अपि गुरुः अस्ति इति कारणात् आवयोः दुःखमपि समानमस्ति इति। कृपाचार्यः वत्स यथा आह गुरुपतिः तथैव एतत् तथा एव एतत् इति। कुरुपतिः दुर्योधनः यथा वदति तद् सत्यमेव इति कृपाचार्यः अपि दुर्योधनस्य अभिप्रायम् अङ्गीकरोति स्म। इदानीम् अश्वत्थाम राजन् एवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुं युक्तमेव इति अश्वत्थाम दुर्योधनं वदति भवतः शोकस्य भारं यदस्ति तद् न्यूनीकर्तुं युक्तमेव उचितमेव। भवान् पक्षपातिनि त्वयि, पक्षपाति नाम स्नेहवान् इति अर्थः, स्नेहवान् त्वयि यत् शोक स्नेहवति त्वयि यः शोकः अस्ति तस्य शोकस्य भारं न्यूनीकर्तुं युक्तमेव। किन्तु मयि जीवति मत्तातः केशग्रहम् अवाप्तवान् कथमन्ये करिष्यन्ति पुत्रेभ्यो अपुत्रिणः स्पृहां मयि जीवति मत् तातः केशग्रहम् अवाप्तवान् मयि जीवति सति यदा अहं जीवन् अस्मि तदा एव मम पिता तातः केशग्रहम् अवाप्तवान् केशग्रहणं प्राप्तवान् शत्रुणा। किन्तु कथम् अन्ये करिष्यन्ति पुत्रेभ्यो पुत्रिणः स्पृहाम् अन्ये अपुत्रिणः पुत्रेभ्यः अपुत्रिणः अन्ये अपुत्रिणः नाम पुत्ररहिताः यस्य पुत्रः अस्ति सः पुत्री अन्ये अपुत्रिणः यस्य न पुत्रः यस्य अस्ति सः अपुत्री भवति एवम् अन्ये अपुत्रिणः पुत्ररहिताः नाम अनपत्याः पुत्रेभ्यः कथं स्पृहां करिष्यन्ति पुत्रप्राप्त्यर्थं पुत्रप्राप्तये कथम् इच्छन्ति कथं स्पृहां कुर्वन्ति इति पृच्छति नाम एवम् अपुत्रिणः पुत्ररहिताः कथं पुत्रेभ्यः पुत्रप्राप्त्यर्थम् अभिलषन्ति इति अर्थं कर्तुं शक्यते। अन्यथापि अर्थः भवितुम् अर्हति पुत्रेभ्यः पुत्रिणः कथम् अन्ये पुत्रिणः पुत्रेभ्यः कथं स्पृहां करिष्यन्ति नाम पुत्रिणः इति अपि अर्थः भवितुमर्हति अपुत्रिणः इत्यपि भवितुम् अर्हति। अत्र पुत्रिणः इत्युक्ते पुत्रसहिताः जनाः अन्ये जनाः कथं पुत्रेभ्यः स्नेहं प्रदर्शयन्ति पुत्रेषु कथं स्नेहं प्रदर्शयन्ति इत्यपि अर्थः भवितुम् अर्हति। एवम् एकैकस्य पठितॄणाम् इच्छानुसारम् अर्थः भवितुम् अत्र अर्हति। अपुत्रिणः पुत्रेभ्यः कथं स्पृहां करिष्यन्ति इत्यपि अर्थः पुत्रिणः पुत्रेभ्यः कथं स्पृहां करिष्यन्ति इत्यपि अर्थः भवितुम् अर्हति। व्याख्यां पठामः। मयि जीवति अश्वत्थाम्नि सजीवे सति मत्तातः मम जनकः केशग्रहं केशेषु गृहीत्वा वधम् अवाप्तवान् प्राप्तवान् अन्ये अपरे अपुत्रिणः अपुत्राः जनाः पुत्रेभ्यः सुतेभ्यः स्पृहाम् अभिलाषां कथं करिष्यन्ति केन प्रकारेण विधास्यन्ति ते पुत्र उत्पादनात् विमुखाः भविष्यन्ति इति आशयः। पुत्रः सन्नेव पुत्रे जीवति एव तातस्य एतादृशः घोरः विहितः अस्ति अतः पुत्रहीनाः पुत्रप्राप्त ति अभिलाषमेव न कुर्वन्ति इति एकम् एक्स्ट्रीम् केस् अत्र उच्यते. कर्णः द्रौणायने किमत्र क्रियते यत् अनेनैव सर्वपरिभव परित्राणहेतुना शस्त्रम् उत्सृजता तादृशीम् अवस्थाम् आत्मा नीतः. कर्णः वदति द्रौणायने, हे अश्वत्थामन्, किमत्र क्रियते, किं कर्तुं शक्यते इदानीं? कारणं यस्मात् अनेन शस्त्रम् उत्सृजता अनेन तादृशीम् अवस्थाम् आत्मा नीतः. नाम सः कर्णः किम् अभिप्रैति इत्युक्ते, द्रोणाचार्यस्य अस्त्र त्यागेन तस्य मरणं स्वयमेव विहितः इति, सः एव कारणं तस्य मरणस्य इति. कारणं शस्त्रम् उत्सृष्टवान् इति, तदेव कारणम्, अतः स्वयमेव एतादृशीं स्थितिं प्राप्तवान् सः द्रोणाचार्यः इति कर्णः वदति. शस्त्रम् उत्सृजता अनेन द्रोणाचार्येण तादृशीम् अवस्थां, तादृशीं स्थितिम् आत्मा नीतः, स्वयं नीतः, सः स्वयमेव प्राप्तवान् इति. कीदृशेन उत्सृजता, अनेन कीदृशेन शस्त्रम् उत्सृजता इत्युक्ते, सर्वपरिभवपरित्राणहेतुना उत्सृजता. सर्वेषां परिभवानां, सर्वेभ्यः नो चेत् सर्वेभ्यः परिभवेभ्यः परित्राणहेतुः अस्ति शस्त्रं. नाम यदा परिभवः प्राप्यते, तिरस्कारः प्राप्यते, तदा तस्मात् परित्रायते शस्त्रं. किन्तु तादृशं शस्त्रं रक्षणार्थं प्रयुज्यमानं शस्त्रं सः त्यक्तवान् इति कारणात् सः स्वयमेव एतादृशीं स्थितिं नीतः. स एव कारणम् एतस्याः स्थित्याः, एतस्याः अवस्थायाः कारणं द्रोणाचार्यः स्वयमेव. अश्वत्थाम अङ्गराज, किमाह भवान् किमत्र क्रियते इति श्रूयतां यत् क्रियते. अश्वत्थाम वदति, किमाह भवान् किमत्र कर्तुं शक्यते इति पृच्छति. किं शृणोतु, किं किं करिष्यामि इति. यो यः शस्त्रं बिभर्ति स्वभुज गुरु मदः पाण्डवीनां चमूनां, यो यः पाञ्चालगोत्रे शिशुः अधिकवया गर्भशय्यां गतो वा, यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः, क्रोधान्धस्तस्य तस्य स्वयमपि जगताम् अन्तकस्य अन्तको अहम्. यः शस्त्रं गृह्णाति पाञ्चालगोत्रेषु शिशुः चेतपि, सः गर्भे विद्यमानशिशुः चेतपि, ये ये तत्कर्मसाक्षिणः आसन् तेषां सर्वेषाम् अहम् अश्वत्थाम यमवत् आचरामि इति वदति सः. अहं यमः अस्मि, तेषां सर्वेषामपि यमराजः अस्मि अहम् अश्वत्थाम. रौद्ररसप्रधानः अयं श्लोकः, वीररसप्रधानः अपि अयं श्लोकः. बहुषु शास्त्रग्रन्थेषु, अलङ्कारशास्त्रग्रन्थेषु वीररस प्रधानप्रतिपादकत्वेन प्रयुज्यमानः दृश्यते. आनन्दवर्धनाचार्यः वा भवतु, मठाचार्यः वा भवतु, सर्वेषु बहुषु ग्रन्थेषु अस्य श्लोकस्य उल्लेखः दृश्यते. पाण्डवीनां चमूनां यः यः स्वभुजगुरुमदः शस्त्रं बिभर्ति, स्वभुजगुरुमदः यः यः शस्त्रं बिभर्ति, पाण्डवानां चमूनां सेनानां मध्ये यः यः स्वभुजगुरुमदः, स्वभुजबलं, स्वस्य भुजस्य बलं, बलेन गुरुमदः अधिकमदयुक्तः, नाम अत्यधिकः अहङ्कारयुक्तः यः यः मनुष्यः शस्त्रं बिभर्ति, शस्त्रं गृह्णाति, अहङ्कारयुक्तः, स्वभुजबलेन अहङ्कारयुक्तः यः कोऽपि शस्त्रं बिभर्ति चेत् तस्य. अनन्तरं पाञ्चालगोत्रे, पाञ्चालवंशे यः यः शिशुः, लघुशिशुः चेतपि, अनन्तरम् अधिकवयाः, किञ्चित् युवानः वा भवतु, गर्भशय्यां गतो वा, गर्भे विद्यमानशिशुः अस्ति चेतपि तस्य. अनन्तरं यः यः तत्कर्मसाक्षी, तत्कर्म नाम द्रोणाचार्यस्य वधः इति कर्मसाक्षी इति, कर्मणः साक्षिणः ये ये आसन् तत् कार्यस्य साक्षी भूतः यः यः आसीत् तस्य मयि रणे चरति सति। यदा अहं रणे युद्धक्षेत्रे चरन् अस्मि, चरति सति मयि रणे मयि चरति सति, युद्धक्षेत्रे यदा अहं गच्छन् अस्मि तदा यश्च यश्च प्रतीपः, प्रतीपः प्रतापः भिन्नः प्रतीपः भिन्नः, प्रतीपः इत्युक्ते प्रतिकूलकर्ता इति अर्थः। यः यः प्रतिकूलम् आचरति युद्धक्षेत्रे यदा अहं रणे चरामि तदा यः यः प्रतिकूलम् आचरति नाम अनुकूलः न स्यात् तस्य तस्य जगतां लोकस्य तस्य तस्य अन्तकस्य अन्तकः अहं, यमस्य यमः अन्तकः अन्तं करोति इति अन्तकः यमः, तस्य तेषां जनानां यमस्यापि यमः इव अहम् आचरामि। कीदृशः अहं, क्रोधान्तः अहम् इति, क्रोधेन अन्धः अस्मि अहम् अश्वत्थामा, अहं तेषां सर्वेषां जनानां यमस्य यमावत् भवामि। जगताम् अन्तकस्यापि नाम जगताम् अन्तकः अस्ति यमराजः, तस्यापि अहम् अत्र इह नाम अत्र तस्य तस्य स्वयम् अन्तकः अस्मि, तस्य तस्य जनस्य अहं स्वयम् अन्तकः अस्मि, अहं स्वयं यमराजः भवामि। किं वा कर्तुं शक्यते इति कर्णः पृष्टवान्। अहं सर्वं कर्तुं शक्नोमि, सर्वान् मारयितुम् अहं शक्नोमि, समर्थः अस्मि इति अश्वत्थामा वदति। बहु मुख्यः श्लोकः अस्ति अयं श्लोकः, बहुत्र अस्य श्लोकस्य उल्लेखः दृश्यते। पुनः एकवारं पाण्डवानां समूहे यः गुरुमदः नाम भुजबलेन अहङ्कारयुक्तः अस्ति, अहङ्कारेण शस्त्रं बिभर्ति, शस्त्रं गृह्णाति, पाञ्चालगोत्रजान् पाञ्चालगोत्रजः यः शिशुः यः अधिकवयाः, अधिकवयाः इत्यत्र युवकाः ज्येष्ठाः अपि भवन्ति, गर्भशय्यां गतः वा ये गर्भे विद्यमानः शिशुः वा यः यः अस्ति, यः तत् कर्मसाक्षी, यः तत् प्रत्यक्षं दृष्टवान् मम पितुः वध रूपकर्मं कार्यं यः प्रत्यक्षं दृष्टवान्, रणे यदा अहं चरामि तदा यः प्रतीपम् आचरति, यः अननुकूलं नाम प्रतिकूलम् आचरति तस्य तस्य, यः यः इत्यत्र तस्य तस्य इति अन्वयः, तस्य तस्य जनस्य क्रोधान्तः अहम् अन्तकः भवामि। यदा जगताम् अन्तकस्य अपि यमः अस्ति तस्यापि अहम् अत्र रणक्षेत्रे अहम् एतस्य जनस्य सर्वस्य अपि जनस्य, यः शस्त्रं बिभर्ति, यः पाञ्चालगोत्रस्य शिशुः अस्ति, यः प्रतिकूलम् आचरति, यः कर्मसाक्षी अस्ति तस्य तस्य जनस्य अहम् अन्तकः भवामि। व्याख्यां पठामः। पाण्डवीनां पाण्डवसम्बन्धिनीनां चमूनां सैन्यानां स्वमध्ये इति अध्याहारः। स्वभुजगुरुमदः, स्वस्य भुजौ स्वभुजौ तयोः गुरुः मदः यस्य सः आत्मबाहुबल अभिमानः यः यः यो यो वीरः शस्त्रम् आयुधं बिभर्ति धारयति पाञ्चालगोत्रे पाञ्चालवंशे यः यः शिशुः यो यो बालः अधिकवयाः वयस्काः वा अथवा गर्भशय्यां गर्भे गतः प्रविष्टः यः यः यो यो वीरः तत्कर्मसाक्षी तत्कर्मणः गुरुवधकर्मणः साक्ष्यरूपः मयि अश्वत्थाम्नि रणे युद्धे चरति विचरति यः यः यो यो वीरः प्रतीपः विपरीतकारी क्रोधान्धः रोषविचारशून्यः अहम् अश्वत्थाम जगतां लोकानाम् अन्तकस्य विनाशकस्य यमस्य अपि इह अत्र तस्य तस्य सर्वविधस्य स्वयम् आत्मना अन्तकः नाशकः अहम् अस्मि। अत्र रूपक अलङ्कारः अहमेव अन्तकस्य अन्तकः इति सूपर् इम्पोसिशन् एवम् उक्तत्वात् अन्तकस्य अन्तकः इति उक्तत्वात् अत्र रूपकलङ्कारः अपि च अग्रे गच्छामः भो जामदग्निशिष्य कर्ण देशः सो अयम् अरातिशोणितजलैः यस्मिन् ह्रदाः पूरिताः क्षत्रादेव तथाविधः परिभवः तातस्य केशग्रहः तान्येव अहितशस्त्रघस्मरगुरून् अस्त्राणि भास्वन्ति मे यद् रामेण कृतं तदेव कुरुते द्रौणायनिः क्रोधनः परशुरामेण यत् कृतं तद् अद्य अश्वत्थाम्ना क्रियते इति वदति हे भो जामदग्न्यशिष्यकर्ण जमदग्नेः पुत्रः जामदग्न्यः परशुरामः परशुरामस्य शिष्यः कर्णः अतः जामदग्न्यशिष्यकर्ण पितुः जमदग्नेः परिभवः जातः इति कारणात् परशुरामः सर्वान् क्षत्रियवंशान् नाशितवान् मारितवान् अतः इदानीं पितुः द्रोणाचार्यस्य परिभवः जातः इति कारणात् तस्य पुत्रः अहम् अश्वत्थामा सर्वान् नाशयामि इति वदति अश्वत्थामा यस्मिन् देशे नाम यस्मिन् कुरुक्षेत्रे कुरुक्षेत्रः इति धर्मक्षेत्रः बहु प्रसिद्धः युद्धार्थं यस्मिन् क्षेत्रे यस्मिन् कुरुक्षेत्रे अरातिशोणितजलैः ह्रदाः पूरिताः अराति इत्युक्ते शत्रुः इति शोणितरक्तम् अरातीनां शोणितं तदेव जलं नाम शत्रूणां रक्तं तदेव जलं भवति तैः जलैः ह्रदाः पूरिताः ह्रदाः तडागाः जलाशयाः पूरिताः आसन् सः अयं देशः सः एव अयम् एषः देशः कुरुक्षेत्रः सः देशः अस्ति तथाविधः तातस्य केशग्रहः परिभवः तादृशः तातस्य द्रोणाचार्यस्य केशग्रहः परिभवः क्षत्रात् एव क्षत्रियात् एव यथा परशुरामस्य पितुः जमदग्नेः परिभवः कस्माच्चित् क्षत्रियात् जातः अस्मिन् देशे तथा एव मम पितुः द्रोणाचार्यस्य परिभवः अपि कस्माच्चित् क्षत्रियात् क्षत्रियपुरुषात् जातः अतः क्षत्रात् एव आसीत् इति तानि अहितशस्त्रघस्मरगुरूणि भास्वन्ति मे अस्त्राणि बहु रोषः अस्ति तस्य महता कोपेन वदति यस् पूर्वमपि जमदग्नेः परिभवः क्षत्रियात् जातः अद्यपि मम तातस्य द्रोणाचार्यस्य परिभवः क्षत्रियात् जातः इति कारणात् मम अस्त्राणि भास्वन्ति सन्ति मम अस्त्राणि स्फुरन्ति इदानीं कीदृशानि अस्त्राणि अहितशस्त्रघस्मरगुरूणि अस्त्राणि अहित नाम शत्रुः शस्त्र अस्त्रम् अहितशस्त्र इत्युक्ते शत्रूणाम् अस्त्राणि शस्त्राणि घस्मरः इत्युक्ते नाशकः एवम् अहितानां शत्रूणां नाशयितुं समर्थानि सन्ति मम अस्त्राणि घस्मरगुरूणि महन्ति अस्त्राणि नाशं कर्तुं महन्ति मे अस्त्राणि भास्वन्ति सन्ति प्रकाशमानानि सन्ति पितुः अपमानं श्रुत्वा मम अस्त्राणि स्वयमेव स्फुरन्ति सन्ति इति अर्थः स्वीकरणीयः कीदृशानि अस्त्राणि इत्युक्ते शत्रूणां यानि अस्त्राणि सन्ति तेषां तानि अस्त्राणि नाशयितुं विद्यमानानि मम गुरूणि अस्त्राणि गुरु इति अत्र शब्दस्य महत् इति अर्थः मम महन्ति अस्त्राणि भास्वन्ति प्रकाशमानानि सन्ति नाम शत्रून् मारयितुं मम अस्त्राणि उद्युक्तानि सन्ति इदानीं यत् रामेण कृतं तदेव कुरुते द्रौणायनिः अत्र यत् परशुरा पितुः जमदग्नेः परिभवात् यत् परशुरामः स्व अस्त्रैः शत्रून् मारितवान् तथा एव पितुः द्रोणाचार्यस्य परिभवात् एषः अश्वत्थामा अपि स्व अस्त्रैः शत्रून् मारयति इति श्लोकस्य आशयः एवं यत् रामेण कृतं तदेव अश्वत्थामा अपि करोति इति उक्तत्वात् अत्र निदर्शन अलङ्कारः अत्र बिम्बप्रतिबिम्बभावः नास्ति कुवलयानन्दे निदर्शन अलङ्कारस्य लक्षणमेवम् उदाहरणमेवम् उच्यते या धातुः सौम्यता सेयं पूर्णेन्दोरलङ्कता या धातुः सौम्यता सेयं पूर्णेन्दोः अकलङ्कता इति नाम या प्रसन्नता अस्ति धातुः धातुः नाम दाता यः अस्ति तस्य या प्रसन्नता अस्ति सा एव प्रसन्नता पूर्णेन्दोः अपि अस्ति तदेव तत्रापि अस्ति इति समानविषयः उक्तत्वात् निदर्शनालङ्कारः सदृशम् इति न उक्तं तदेव एतत् इत्यपि न उक्तं तेन यत् कृतं तदेव एषः अपि करोति इति उक्तत्वात् अत्र निदर्शनालङ्कारः व्याख्यां पठामः यस्मिन् यत्र ह्रदाः जलाशयाः अरातिशोनितजलैः अरातीनां शत्रूणां शोनितम् एव रुधिरमेव जलानि तैः पूरिताः भरिताः सः तथाविधः अयम् एषः देशः कुरुक्षेत्रदेशः वर्तते तथाविधः तादृशः तातस्य पितुः केशग्रहः केशग्रहणरूपवधः परिभवः पराभवः क्षत्रात् क्षत्रियात् एव तानि तादृशानि अहितशस्त्रगस्मरगुरूणि अहितानां शत्रूणां यानि शस्त्राणि आयुधानि तेषां घस्मराणि भक्षकानि अत एव गुरूणि प्रचण्डानि भास्वन्ति प्रदीप्तानि मे मम अस्त्राणि प्रहरणानि वर्तन्ते इति अध्याहारः यत् एवं विंशतिवारं निःक्षत्रियत्वं कर्म रामेण परशुरामेण विहितं कृतं विहितं तदेव तत्क्षत्रियविनाशकम् एव कर्म क्रोधनः क्रोधान्तः द्रौणायनिः द्रोणपुत्रो अश्वत्थामा कुरुते विदधाति इति अत्र निदर्शन अलङ्कारः दुर्योधनः आचार्यपुत्र तस्य तथाविधस्य अनन्यसाधारणस्य ते वीरभावस्य किम् अन्यत् सदृशम् तथाविधस्य तादृशस्य अनन्यसाधारणस्य ते वीरभावस्य किम् अन्यत् सदृशं नाम अन्यैः यत् साधारणेन लब्धुं न शक्यः तादृशः वीरभावः त्वयि वर्तते अश्वत्थाम्नि अस्ति तत् सदृशम् अन्यत् किमस्ति नाम परशुरामेण सदृशः भवान् एव अस्ति अन्यः कोऽपि नास्ति इति अर्थः एव अन्यसाधारणस्य तव वीरभावस्य तव वीरसदृश तव वीरभावयुक्तस्य तव अन्यत् सदृशं किम् अन्यत् किमपि सदृशं नास्ति परशुरामतुल्यः भवान् एव कृपः राजन् सुमहान् खलु द्रोणपुत्रेण वोढुम् अध्यवसितः समरभरः द्रोणपुत्रेण अश्वत्थाम्ना महान् समरभरः अयं महान् युद्धभारः वोढुम् अध्यवसितः नाम युद्धभारं वोढुं स्वीकर्तुम् अध्यवसितः सज्जः निश्चितः जातः एषः द्रोणपुत्रः तद् अहम् एवं मन्ये भवता कृतपरिकरो अयम् उच्छेतुं लोकत्रयमपि समर्थः भवता कृतपरिकरः अयम् कृतपरिकरः इत्यत्र सेनापतित्वेन अभिषिक्तः अयम् अश्वत्थामा इत्यर्थः कृतपरिकरः अयम् अश्वत्थामा सैनापत्ये नियुक्तः अयम् अश्वत्थामा, भवता नियुक्तः अयम् अश्वत्थामा, लोकत्रयमपि उच्छेतुं समर्थः इति अहं मन्ये. त्रीन् लोकान्नपि उच्छेतुं नाम उत्पाटयितुं सः समर्थः एव. सैनापत्ये अभिषिच्य सः निश्चयेन युद्धं कर्तुं समर्थः, सर्वान् मारयितुं समर्थः एव इति अहं मन्ये. किं पुनः यौधिष्ठिरबलं, किं पुनः वक्तव्यं? यौधिष्ठिरबलमपि सः उच्छेतुं समर्थः इति किं वक्तव्यं? त्रोलोकत्रयमपि यदि सः उच्छेतुं समर्थः स्यात् तर्हि यौधिष्ठिरबलम् अपि उच्छेतुं समर्थः एव इति. अतः अभिषिच्यतां सेनापतये, अतः एतं सेनापतिस्थाने एतस्य नियोगं कुरुताम्. अभिषिच्यताम् एषः अश्वत्थामा सेनापते, सेनापतिस्थाने एषः एतस्य अभिषेकः क्रियताम्. दुर्योधनः सुष्ठु युज्यमानम् अभिहितं युष्माभिः, सुष्ठु सम्यक् एव युष्माभिः भवद्भिः अभिहितम् उक्तं, सुष्ठु युज्यमानम् एव नाम सम्यक् उचितम् एव. किन्तु प्राक्प्रतिपन्नो अयमर्थो अङ्गराजस्य, किन्तु अयमर्थः अयं सेनापति इति स्थानं, सेनापत्यं स्थानम् अङ्गराजस्य प्राक् प्रतिपन्नः, अङ्गराजस्य कर्णस्य कृते प्राक् पूर्वमेव प्रतिपन्नः, प्रतिज्ञातः मया. नाम अहं कर्णम् अस्मिन् सेनापतिस्थाने नियोक्तुं पूर्वमेव अहं प्रतिज्ञां दत्तवान् इति. कृपः राजन् असदृशपरिभवशोकसागरे निमज्जन्तं येनम् अङ्गराज्य अर्थे नैव उपेक्षितुं युक्तम्. असदृशपरिभवशोकसागरे निमज्जन्तं येनम्, शोकसागरे निमज्जन् अस्ति इदानीम् अश्वत्थाम. कीदृशशोकसागरे इत्युक्ते असदृशपरिभवम् इति शोकसागरे, नाम एतादृशः परिभवः तस्य असदृशः अस्ति. असदृशः नाम अनुचितः परिभवः. एतादृशः अपमान अनुचितम् अपमानम् इति शोकसागरः अस्ति इति कारणात् परिभवस्य शोकसागरः. तादृशे शोकसागरे निमज्जन्तं येनं, पतितं येनम् अश्वत्थामानम् उपेक्षितुं न युक्तम्. एतस्य उपेक्षा न करणीया. तदपि कस्य कृते एतस्य उपेक्षा क्रियते इत्युक्ते अङ्गराजस्य कृते, कर्णस्य कृते एतस्य अश्वत्थाम्नः उपेक्षा न करणीया इति. कीदृशः अश्वत्थामा इत्युक्ते शोकसागरे निमज्जन् अश्वत्थामा. कीदृशशोकसागरे इत्युक्ते असदृशपरिभवशोकसागरे, नाम तस्य अनुपमः परिभवः, अनुपमः अनुचितः परिभवः अस्ति, तदेव शोकसागरः अस्ति. तस्मिन् शोकसागरे निमज्जन्तं येनम् अश्वत्थामानं न उपेक्षस्व अङ्गराजस्य कृते, कर्णस्य कृते इति कृपाचार्यः वदति. अस्यापि तदेव अरीकुलम् अनुशासनीयम्, अतः किम् अस्य पीडा न भविष्यति. तदेव अस्यापि अरीकुलम् अनुशासनीयं, तदेव नाम अत्र कर्णः यत् करोति, कर्णः यत् करिष्यति तदेव अस्यापि नाम अश्वत्थाम्नः अपि अरिकुलम् अनुशासनीयम्, अरिकुलस्य शत्रुकुलस्य नाशः करणीयः अस्ति, तदेव एषः अपि करोति, अतः किम् अस्य पीडा न भविष्यति. अतः यदि एषः सैनापत्ये न अभिषिच्यते, एषः अश्वत्थामा यदि सैनापत्ये न अभिषिच्यते, अथवा कर्णः यदि सेनापतिः भविष्यति चेत् अस्य पीडा न भविष्यति किम्? अस्य अश्वत्थाम्नः दुःखं न भविष्यति किम् इति पृच्छति कृपाचार्यः. कर्णस्य कृते अस्य अश्वत्थाम्नः उपेक्षा क्रियते चेत् निश्चयेन सः दुःखम् अनुभविष्यति एव इति कृपाचार्यः वदति.